ಗಣಪತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ ನೋದಿಭಿಃ ಸೇದ ಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುದತೇ ನಮಃ ಯಾತ ಇಷ ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಚ ರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತ್ತನೋರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಷೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸೇ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೀಗಸ್ಯ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾಶಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರ ಅರುಣ ಉತ ಬಭ್ರುಸ್ಸು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯ ಉದೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಣಯಾದಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾಗ್ನಿಯೋರ್ಜಾಂ ಯಾಸ್ಯ ದೇಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖ ಶಿವೋ ನಃ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗದಿ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯ ನಾತದಾಯ ಧೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುದತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷುದಿಸ್ತವಾರಿ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ पतये नभो नमः सस्पिञ्जराय त्विषीमते पतीनाम् पतये नभो नमो बब्लुषाय व्यव्याधिनेनानाम् पतये नभो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय दताविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पथीनाम् पतये नमो नम कृत्सवीताय धावते सर्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृगामेभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमोऽसि मद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगम् हदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपदेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संविद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्ध्याय चावस्वन्याय च नमः श्रोतस्याय च वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शोराय चावबिन्धते च नमो वर्मिणे च वरोथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो तृष्णवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः तीक्ष्णे च मे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सदस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो हन्ते जानीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च भेण्याय च नमः त्रिगत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धतस्पदे दरिद्रं नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चन ममद या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे दयानो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मदिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रो दनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामिदो वदेरविष्मन्तो नमसा विधेमते आनात्ते गोग्न उदपोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अरिच देव प्रोयदा च नः शर्म यच्छ विबर्हा सुहृश्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडाजरित्रेणुद्रस्तवानो अन्यन्ते आस्मन्निव बन्धु सेना परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मदिरगायोः अवस्थिरामगवद्भ्यस्तनुष्वमीव स्तोकाय तनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन्निदाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहि विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव बन्धुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्याम् तेषागुम् सहस्रयो जने वधन्वानि जन्मसि अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाश्रिविकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पथाम्पतिरक्षय ऐलभृदाय व्युदः ఏ తీర్థాని ప్రచరంతి శృగావంతో నిషంగిణ ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రామిదస్తిని తేషాగుంసహస్రయో జనే వధన్వాని తన్మసి నమో రుద్రేభ్యో యే పృథివ్యాం ఏంతరిక్షే యే దివి యేషామన్నం వాసో వర్షమిషవస్తేభ్యో దశ ప్రాచే దశ దక్షిణా దశ ప్రదీచే దశో దీచే దశోద్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం ద్విష్మో యశ్చ నో ద్వేష్యతం భోజం వేదదామి త్రింబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాత్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వా భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యోర్మర్త్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరతిరుద్రో మా విశాంతకః తేనానేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టు హ్యశ్విషుదన్వాయో విశ్వస్య క్షయ దివే ఖజస్య యక్ష్వా మహేశో మనసాయ రుద్రం నమో భిర్దేవమసురం దువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తర అయం మే విశ్వభేషజోయగు శివామర్శన శాంతి 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 అగ్నా విష్ణు సజోష సేవాబద్ధంతో వాంగిర ద్యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసిద్ధిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే సువశ్చ మే ప్రాణశ్చ మే అపానశ్చ మే వ్యానశ్చ మే స్వశ్చ మే చిత్తం చ మాదితం చ మే వాచ్య మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మాయుశ్చ మే జరా ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోగం చ మే శరీరాని చ మే జైష్ట్యం చ ఆధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మేమశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే భస్మా చ మే ద్రాభుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమాణం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుగం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే క్లుప్తం చ మే క్లుప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శ్రంచ మే వయశ్చ మే ప్రియం చ మే నుకామశ్చ మే కామశ్చ మే సోమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संवेक्ष मे ज्ञातम् च मे सोऽश्च मे प्रसोऽश्च मे शीरम् च मे लयश्च मरुतम् च मे व्रतम् च मे यक्ष्मम् च मे नामयच्च मे जीवाधुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे अभयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओच्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्धिश्च मे सपेतिश्च मे कृशिश्च मे वृष्टिश्च मे चैत्रम् च मौद्भिद्यम् च मे हरिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभुच मे प्रभु च मे बहुच मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मथुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्माश्च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिगदाश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे वीरोधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वृत्तम् च मे वृत्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च वैदिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुद्वदीयाश्च मे महेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पाग्निवतश्च मे हार्योजनश्च मे हित्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्ण्याश्च मे श्रुतश्च मे चमसाश्च मे ग्रामाणश्च मे स्वरवश्च म उपरवाश्च मे भिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे बोधवृक्ष म आधवनीयश्च म आग्नेर्धं च मे अविद्धानं च मे गृहाश्च मे सलश्च मे पुरोणाशाश्च मे पचदाश्च मे वबृदश्च मे स्वगाकारश्च मे अग्निश्च मे कर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्रयोर्वृष्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्ठौ हि च मुक्षा च मे वशा च मरुषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे अष्टाविगुंसतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानि सगुं द्विषद्विश्वे देवासोऽर्तवाच पृथिवीमा धर्मा वाहिगुंसिर् मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगु शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति। शांति 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 ॐ तच्छै यो रावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिं विश्वतो वृत्वा अद्य तिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अथोज्यायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् यत्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण अविशा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धमिः सप्तास्यासन् परिदयः त्रिसप्त समिद कृताः देवा यज्ञज्ञम् तन्वानाः अभग्नन् पुरुषम् पशुम् तं यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रदः तेन देवा अयजन्त साध्यार्षयश्चये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये तस्माद्यज्ञात् सर्वहुतः रचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायत एकेशो भयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कथिता व्यकल्पयन् मुखम् किमस्य कौ बाहो का ऊरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः ऊरुददस्य यद्वैश्यः पद्भ्याम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తే హనాకం మహిమానస్సచంతే యత్ర పూర్వే సాధ్యా సంతి దేవాః అభ్యః సంభూతః పృథివ్యైరసాచ విశ్వకర్మణ సమవర్తతాది తస్య త్వష్టా విదద్రూపమేది తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమస పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా విద్యతే యనాయ ప్రజాపతిశ్చరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య ధీరా పరిజానంతి యోనిం మరీచీనాం పదమిచ్ఛంది వేదసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో ఋషాయ బ్రాహ్మయే ఋషం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే హ్రేశ్చతే లక్ష్మీశ్చ పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ వ్యాక్తం ఇష్టం మనిషాణా అముం మనిషాణా సర్వం మనిషాణా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ఓం శాంతి శాంతి శాంతిః ఓం అత్రినాత్వా క్రిమేహన్మి కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమేణాగుం రాజా అప్యేషాగస్తపతిర్హతః అథో మాతాతో పితా అథో స్థూరా అథో క్షుద్రా అథో కృష్ణ అథో శ్వేత అథో ఆశాదికా హతా శ్వేతాభిస్స సర్వే హతా ఆహరావద్యా శ్రుతస్య హవిషో యథా తత్సత్యం యదమయ్యమస్య జంభయో ఆదధామి తథా హి తత్ ఖణ్పణ్వసి ఓం శాంతి శాంతి శాంతిః ఓం సహనావవతు సహనో భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి శాంతి శాంతిః బ్రహ్మవిదాప్నోతి పరం తదేషాభ్యుక్తా సత్యం జ్ఞానమనంతం బ్రహ్మ యో వేద నిహితం గుహాయాం పరమే వ్యోమన్ సో శ్రుతే సర్వాన్ కామాన్ సహ బ్రహ్మణాది పశ్చితేతి తస్మాద్వాదాత్మన ఆకాశః సంభూతః ఆకాశాద్వాయుః వాయోరగ్నిః అగ్నేరాపః అభ్యః ప్రతిరే divya oshadayah oshadibhyo nam annat purushah sava esha purusho narasamayah tasyedame vashilah ayam dakshina pakshah ayam uttara pakshah ayam atma idam pucham pratishtha tadapyesha soko bhavati annadvai praja prajayante yakasya prativegashrita ato anne naiva jivante ataina tapi antyantatah annagum hi bhutanam jeshtam tatsvaa sarvaushadham uchyate sarvam vaite navapnuvanti enam brahmopasate annagum hi bhutanam jeshtam tatsvaa sarvaushadham uchyate annat bhutani jayante jatanyanena vadhante adyateti cha bhutani tasvadannam taluchyata iti tasvadva etasvadannala samayat anyontara atma praramayah tenaisha purnah sava esha purusha vidha eva tasya purusha vidhatam anvayam purusha vidah tasya prana eva shirah vyano dakshina pakshah apara uttara pakshah akasha atma prithivi pucham pratishtha tadapyesha soko bhavati pranam deva anupranante manushya pashavaschaye prano hi bhuta namayoho tasva sarvayushamuchyate sarvameva chayuryante ye pranam brahmopasate prano hi bhutanamayuh tasvat sarvayushamuchyata iti tasyesha eva sharira atma yapurvasya tasvat va etasvat pranavayat anyantara atma manomayah tenaisha purnah sava esha purusha vidha eva tasya purusha vidhatam anvayam purusha vidah tasya yajure vashirah rugdakshina pakshah samottara pakshah adesha atma atarvangira sappuchham pratishtha tadapyesha shloko bhavati yato vacho nivartante apraapya manasa saha anandam brahmano vidvan na vibheti kadachaneti tasyesha eva sharira atma yapurvasya tasvadva edasvan manomayat anyantara atma vidyanamayah tenaisha purnah sava esha purusha vidha eva tasya purusha vidhatam anvayam purusha vidah tasya shraddhai vashirah ritam dakshina pakshah satyam uttara pakshah yoga atma mahapuchham pratishtha tadapyesha shloko bhavati vijnanam yajnam tanute karmani tanute picha vijnanam deva sarve ब्रह्मज्येष्ठमुपासते विज्ञानं ब्रह्मचेद्वेद तस्माच्छेन प्रमाद्यते शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्येष एव शरीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मा विज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविदः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः प्रमोद उत्तरपक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनम् ततो विदुरिति तस्येष एव शरीर आत्मा यः पूर्वस्य अतातो न प्रश्नाः उता विद्वानमुम् लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमुम् लोकम् प्रेत्य कश्चित् समश्नुता सोकामयत बहुस्याम् प्रजायेति सतपोरप्यता सतपस्तत्वा इलगुम् सर्वमसजत यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत तदनुप्रविश्य सच्चित्तच्चाभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् चानतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानग्र स्वयमकुरुत तस्मात् तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगृह्येवायम् लब्ध्वानन्दे भवति को ह्येवान्यात् क प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द याति यदा ह्येवैष एतस्मिन्न दृश्येनाप्ये निरुक्ते निलयने भयम् प्रतिष्ठान् विन्दते अतसो भयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्त्वेव भयम् विदशो मन्मानस्य तदप्येष श्लोको भवति भीषास्मात्वातः पवते भीषो देति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति सैषानन्दस्य मीमागुंसा भवति युवात्सात्सादुयुवाध्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेये शतम् मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहलस्य तेये शतम् मनुष्यगन्धर्वाणामानन्दाः स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् देवगन्धर्वाणामानन्दाः स एकप्यतृणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् पितॄणाम् चिरलोकलोकानामानन्दाः स एक आजानजानाम् देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतमाजानजानाम् देवानामानन्दाः स एक कर्म देवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ति श्रोत्रियस्य चाकामहतस्य ते ये शतम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् बृहस्पतेरानन्दाः स एक प्रजापतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य स यस्यायम् पुरुषे यस्यासावादित्ये स एकः स य एवंवित् अस्माल्लोकान् प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रामति एतम् प्राणमयमात्मानमुपसङ्क्रामति एतम् मनोमयमात्मानमुपसङ्क्रामति एतम् विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामति तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दम् ब्रह्मणो विद्वान् न विवेति कृतश्च नेति एतगुम् हवावन तपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स य एवम् विद्वानेते आत्मानग्रस्पृणुते उभे एवैष एते आत्मानग्रस्पृणुते य एवम् वेद इत्युपनिषत् सहनावतु सहनौ भुनत्तु सह वीर्यम् करवावहै तेजस्विनावदीतमस्तु मा विद्विषावहै ॐ शान्ति 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 न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विव्राजते तद्यतयो विशन्ति वेदान्तविज्ञानतु निश्चितार्था सन्न्यासयोगा यदयः शुद्धसत्त्वा ते ब्रह्मलोके तु परान्तकाले परामृता परिमुच्यन्ति सर्वे गभ्रम् विपापम् परमेश्वरभूतम् यः पुण्डरीकम् पुरमद्य सर्गस्तम् तत्रापि दग्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीलस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम्। ज्ञानेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।